Om Sivaya Namah. Dear listeners of Shaivam.org, the next program is Purana Parayanam. In this, you are about to listen Skanda Mahapuranam. The title is Maheshwara Kandam Part 3 Purvardham. Thank you. Om Sivaya Namah.
Om Atha Tritiyodhyaya Harvatyaha Shvanetra Nimilanena Tamasaksha Lokapapa Mayena Kanchyam Kamyasthidaihi Kamratame Tapascharyakaranartham Agamanam Shivavirahasya Anaka Uvacha Bhagavannarunadresha Mahatmavidamadhutam Shrutam Shivaprasadena Ascharyametan Mahatmyam Sarvapapa Vinashanam Aradhayan Punahkeva Varadam Shonaparvatam
Anadirantarahitaha Shivashonachalakritihi Yoyostapasadeva Varadanayathamsthitaha Sakutsankirtitenamni Shonadritimuktide Sannidhi Sarvakamanam Jayate Jaghanashanam
Shivashabdamritavswadaha Shivarchanakathakramaha Iti Tadvachanam Shutva Devadeva Pitamaha Vajakarunamurtihi Arunadrishamanarmanna Brahmovacham Shuyatam Vatsapadmatyascharitam Yatpuratanam Arunadrishamashritya Yathasadrabhratabhavata Asasadamahadevaha Kadachitparvatipatihi
Ratnasimhasanam Divyam Ratnatornasanyutam Ratnapushpafalokalpadrumamanoharam Parargyadrushavadastirnam Baddhamuktavitanakam Vimuktapushpaprakara Divyadhuporu Saurabham
Lambamalikajada Nenadadhringasankulam Divyachumuryaghanadava Pranatyadguhavahanam Parvati Simbhasanchara Paritrastamahagajam Aptarobhitpranartabhihi Gayanti Vishchakevalam Asevitapurorangam Dikpadakanishevitam Rigyajusvamajayirmantraihi Suvadhirmunipungavaihi
Brahmarshivistatha devaihi Siddhai Rajarshivirudatam Ganaishtavidhakaraihi Bhasmalankrita vigrahaihi Rudrakshadhara subhagaihi Apurnam hivasatpalaihi Veena venu madangadi Taurya trikaja nisvanaihi
Ghanta tankara subhagaihi Vedadhvane vimishriteihi Manoharam mahadivyam Asanam parvati sakaha Aranchakara bhagavan Bhaktanugrahakamyaya Asthaya vivaram rupam Sarvatejomayam shivam Ambikasahita shriman Vijaharadayanithi Sangeetena kathabhedaihi Tyutakrida vikalpanaihi Gananam vikatai nirtyaihi Ramaya masa parvatim Vishrijya sakalam devaha Rishivshchapi sabhasadaha Varan Visrijya sakalam devan Rishivshchapi sabhasadaha Varan pradaya vividhan Bhaktalokaya vanchitan Agameshu vichitreshu Sarvartu kusu Eshuchat
Vijaharo maya sardham Ratna prasada panktishu Vapikasu manoyasu Ratna sopana panktishu Keri parvata shrangeshu Hema rambhavanantare Ganga taranga sheetena Pulla pankajagandhina Vatena mandagatina Vihara vihatashramaha Swakamatasvayam devaha Preyasim abhyanandayat Ratirupam shivam devim Sarvasaubhagya sundarim Kadachidrahasi prita Nijajna vashavartinam
Ramanam janati mugdha Paschadabhyetya sadaram Karabhyam kamarabhyabhyam Tnetrani jagadguroh Pidathe nilaya shambhoh Kimetha diti kautukata Chandradityagni rupena Pihite shvakshishukramata Andhakaro bhavattatra Chirakaram bhayankarah Nimishardhena devasya Jagmurvatsarakotaya Devi nila samuthena Tamasa bhujjagatkshaya Tamasa puritam vishvam Aparena samantataha
ಶೂನ್ಯಂ ಜ್ಯೋತಿಃ ಪ್ರಚಾರೇಣ ವಿನಾಶಂ ಪ್ರತ್ಯಪದ್ಯತ ನವ್ಯಜೃಂಭಂತ ವಿಬುಧ ನ ಚ ವೇದಾಶ್ಚಕಾಶಿರೆ ನಾಪಿ ಜೀವಾಸ್ತಮಭವನ್ ಅವ್ಯಕ್ತಂ ಕೇವಲಂ ಸ್ಥಿತಂ ಜಗತಾಮಪಿ ಸರ್ವೇಷಾಮಕಾಲೇ ವೀಕ್ಷ್ಯ ಸಂಶಯಂ ತಪಸಾ ಲಬ್ಧ ಸೂಕ್ತೀನಾಂ ವಿಚಾರಸ್ತಮಪದ್ಯತ ಕಿಮೇತತ್ತಮಸೋ ಜನ್ಮ ಭುವನಕ್ಷಯಕಾರಣಂ.
ಭಗವಾನಪಿ ಸರ್ವಾತ್ಮಾ ನನೂನಂ ಕಾಲಮಾಖಿಪತ ದೇವೀ ವಿನೋದರೂಪೇಣ ವಿಧತ್ತೆ ಪುರಜಿದ್ಗೃಷಃ ತೇನೇದಮಖಿಲಂ ಜಾತಂ ನಿಸ್ತೇಜೋ ಭುವನತ್ರಯಂ ಅಕಾಲತಮಸಾ ವ್ಯಾಪ್ತೆ ಸಕಲೇ ಭುವನತ್ರಯೇ ಕಾಗತಿರ್ಲಬ್ಧರಾಜ್ಯಾನಾಂ ತಪಸಾ ದೇವಜನ್ಮನಾಂ ನ ಯಜ್ಞಾಃ ಸಂಪ್ರವರ್ತಂತೆ ನ ಪೂಜ್ಯಂತೆ ಸುರಾ ಭುವಿ ಇತಿ ನಿಶ್ಚಿತ್ಯ ಮನಸಾ ವೀಕ್ಷ್ಯತೆ ಜ್ಞಾನಚಕ್ಷುಷಾ ನಿತ್ಯಾಸ್ತೆ ಸೂರಯೋ ಭಕ್ತ್ಯಾ ಶಂಭುಮಾನಮ್ಯತುಷ್ಟುಭುಃ.
ನಮಃಸರ್ವಜಗತ್ಕರ್ತ್ರೇ ಶಿವಾಯ ಪರಮಾತ್ಮನೇ ಮಾಯಯಾ ಶಕ್ತಿರೂಪೇಣ ಪೃಥಗ್ಭಾವಂ ಉಪೇಯುಷೇ ಅವಿನಾಭಾವಿನೀ ಶಕ್ತಿರಾಜ್ಯೈಕಾ ಶಿವರೂಪಿಣಿ ಲೀಲಯಾ ಜಗದುತ್ಪತ್ತಿ ರಕ್ಷಾ ಸಂಹೃತಿಕಾರಿಣಿ ಅರ್ಧಾಂಗೀ ಸಾ ತವ ದೇವ ಶಿವಶಕ್ತ್ಯಾತ್ಮಕಂ ವಪುಃ ಏಕ ಏವ ಮಹಾದೇವೋ ನ ಪರೇ ತ್ವದ್ವಿನಾ ವಿಭೋ.
ಲೀಲಯಾ ತವ ಲೋಕೋಯಂ ಅಕಾಲೇ ಪ್ರಳಯಂಗತಃ ಕರುಣಾ ತವ ನಿರ್ವ್ಯಾಜ ವರ್ಧತಾಂ ಲೋಕವರ್ಧನಿ ಭವತೋ ನಿಮಿಷಾರ್ಧೇನ ತೇಜಸಾಮುಪಸಂಹೃತೇ ಗತಾನ್ಯನೇಕ ವರ್ಷಾಣಿ ಜಗತಾಂ ನಾಶಹೇತವೇ ತತಃ ಪ್ರಸೀದ ಕರುಣಾ ಮೂರ್ತೇ ಕಾಲ ಸದಾಶಿವ ವಿರಮಪ್ರಣಯಾರಬ್ಧಾತ್ ಅಮುಷ್ಮಾನ್ ಲೋಕ ಸಂಶಯಾತ್ ಇತಿ ತೇಷಾಂ ವಚಃ ಶ್ರುತ್ವಾ ಭಕ್ತಾನಾಂ ಸಿದ್ಧಿಶಾಲಿನಾಂ ವಿಸೃಜಾಕ್ಷೀಣಿ ಗೌರೀತಿ ಕರುಣಾ ಮೂರ್ತಿರಬ್ರವೀತ್.
ವಿಸಸರ್ಜಿತ ಸಾ ದೇವಿ ಪಿಧಾನಂ ಹರಚಕ್ಷುಷಾಂ ಸೋಮಸೂರ್ಯಾಗ್ನಿರೂಪಾಣಾಂ ಪ್ರಕಾಶಂ ಅಭವಜ್ಜಗತ್ ಕಿಯಾನ್ ಕಾಲೋ ಗತಶ್ಚೇತಿ ಪೃಷ್ಟೈಃ ಸಿದ್ಧೈಶ್ಚ ವೈಗತೈಃ ಉಕ್ತಂ ತನ್ನಿಮಿಷಾರ್ಧೇನ ಜಗ್ಮುರು ವತ್ಸರ ಕೋಟಯಃ ಅಥ ದೇವಃ ಕೃಪಾ ಮೂರ್ತಿರಾಲೋಕ್ಯ ವಿಹಸನ್ ಪ್ರಿಯಾಂ ಅಬ್ರವೀತ್ ಪರಮೋದಾರಃ ಪರಂ ಧರ್ಮಾರ್ಥ ಸಂಗ್ರಹಂ.
ಅವಿಚಾರ್ಯಕೃತಂ ಮುಗ್ಧೇ ಭುವನಕ್ಷಯ ಕಾರಣಾತ್ ಅಯುಕ್ತಮಿಹ ಪಶ್ಯಾಮಿ ಜಗನ್ಮಾತಸ್ತವೈವ ಹಿ ಅಹಮಪ್ಯಖಿಲಾಂ ಲೋಕಾನ್ ಸಂಭರಿಷ್ಯಾಮಿ ಸಂಶಯೇ ಪ್ರಾಪ್ತೇ ಕಾಲೇ ತ್ವಯಾ ಮೌಗ್ಧ್ಯಾತ್ ಅಕಾಲೇ ಪ್ರಳಯಂಗತಾಃ ಕೇಯಂ ವಾ ತ್ವಾದೃಶೀ ಕುರ್ಯಾತ್ ಈದೃಶಂ ಸದ್ವಿಗರ್ಹಿತಂ ಕರ್ಮನರ್ಮಣ್ಯಪಿ ಸದಾ ಕೃಪಾ ಮೂರ್ತಿರ್ನಭಾಧತೆ ಇತಿ ಶಂಭೋರ್ವಚಃ ಶ್ರುತ್ವಾ ಧರ್ಮಲೋಪಭಯಾಕುಲಾ ಕಿಂ ಕರಿಷ್ಯಾಮಿ ತಚ್ಛಾಂತ್ಯಾ ಇತ್ಯಪೃಚ್ಛತ್ ಸ್ಮತಂ ಪ್ರಿಯಾ.
ಅಥ ದೇವಃ ಪ್ರಸನ್ನಾತ್ಮ ವ್ಯಾಜಹಾರದಯಾನಿಧಿಃ ದೇವ್ಯಾಸ್ತೇನಾನುತಾಪೇನ ಭಕ್ತ್ಯಾ ಚತೋಷಿತಃ ಶಿವಃ ತ್ವನ್ಮೂರ್ತೇಸ್ತವ ಕೇಯಂ ವಾ ಪ್ರಾಯಶ್ಚಿತ್ತಿರಿಹೋಚ್ಯತೆ ಅಥಾಪಿ ಧರ್ಮ ಮಾರ್ಗೋಯಂ ವಯೈವ ಪರಿಪಾಲ್ಯತೆ ಶ್ರುತಿಸ್ಮೃತಿ ಕ್ರಿಯಾಕಲ್ಪ ವಿದ್ಯಾ ಚ ವಿಬುಧಾದಯಃ ತ್ವದ್ರೂಪಮೇತದಖಿಲಂ ಮಹದರ್ಥೋಸ್ಮಿ ತನ್ಮಯಃ.
ಮಾನ್ಯಯಾಮಿನ್ಯಯಾ ದೇವ್ಯಾ ಭಾವ್ಯಂ ಲೋಕಭಿಸಕ್ಷಯಾ ತಸ್ಮಾನ್ ಲೋಕಾನುರೂಪಂತೆ ರಾಜಶ್ಚಿತ್ತಂ ವಿಧೀಯತೆ ಷಡ್ವಿಧೋ ಗದಿತೋ ಧರ್ಮಃ ಶ್ರುತಿಸ್ಮೃತಿ ವಿಚಾರತಃ ಸ್ವಾಮಿನಾನಾನುಪಾಲ್ಯೇತ ಯದಿ ತ್ಯಾಜ್ಯೋನುಜೀವಿಭಿಃ ನ ತ್ವಾಂ ವಿಹಾಯ ಶಕ್ನೋಮಿ ಕ್ಷಣಮಪ್ಯಾಸಿತುಂ ಕ್ವಚಿತ್ ಅಹಮೇವ ತಪಃ ಸರ್ವಂ ಕರಿಷ್ಯಾಮ್ಯಾತ್ಮನಿಸ್ಥಿತಃ ಪೃಥ್ವೀ ಚ ಸಕಲಾ ಭೂಯಾತ್ ತಪಸಾ ಸಫಲಾ ತವ ತ್ವತ್ಪಾದ ಪದ್ಮ ಸಂಸ್ಪರ್ಶಾತ್ ತತ್ತಪೋ ದರ್ಶನಾದಪಿ ನಿರಸ್ಯಂತಿ ಸ್ವಸನ್ನಿಧ್ಯಾತ್ ದುಷ್ಟಜಾತಮುಪದ್ರವಂ ಕರ್ಮಭೂಮೇಸ್ತ್ವಮಾಧಿಕ್ಯ ಹೇತವೇ ಪುಣ್ಯಮಾಚರ ತ್ವತ್ತಪಶ್ಚರಣಂ ಲೋಕೆ ವೀಕ್ಷ ಸರ್ವೋಪಿ ಸಂತತಂ.
ಮೇ ದೃಢತರಂ ಬುದ್ಧಿಂ ನಿಬದ್ಧೀಯಾನ್ನ ಸಂಶಯಃ ಕೃತಾರ್ಥಯಿಷ್ಯತಿ ಮಹೀಂ ದಯಾತೆ ಧರ್ಮಪಾಲನೈಃ ತ್ವಮೇವೈತತ್ಸಕಲಂ ಪ್ರೋಕ್ತ ವೇದೈರ್ದೇವಿ ಸನಾತನೈಃ ಅಸ್ತಿ ಕಾಂಚೀಪುರೀ ಖ್ಯಾತಾಂ ಸರ್ವಭೂತಿ ಸಮನ್ವಿತಾ या दिवम् देव सम्पूर्णाम् प्रत्यक्षयति भूतले यत्र क्लृप्तम् तपः किञ्चित् अनन्तफलमुच्यते देवाष्टमुनयः सर्वे वासम् वाञ्छन् सन्ततम् तत्र कम्पेति विख्यात महापातकनाशिनी यत्र स्थितानाम् मर्त्यानाम् कम्पन्ते पापकोटयः तत्र च्यूतद्रुमश्चैको राजते नित्यपल्लवः
सम्पूर्णशीतदच्छायाः प्रसूनफलपल्लवैः तत्र यत्तम् हुतम् दत्तम् अनन्तफलदम् भवेत् गणाश्च विविधाकारा लाकिन्यो योगिनीगणाः परितस्त्वाम् निषेवन्ताम् विष्णुमुक्षास्तथा पराः अहम् च निष्कलो भूत्वा तव मानसपङ्कजे सन्निधास्यामि मा भूस्त्वम् देवि मद्विरहाकुला इत्युक्ता देवदेवेन देवी कम्पान्तिकम् ययौव तपः कर्तुम् सखी युक्ता विस्मयाक्रान्तलोचना कम्पाम् च विमलाम् सिन्धु मुनिसङ्घनिषेविताम् आलोक्य कोमलदल मेकाम्ब्रम् दृष्टिवारणम् फलपुष्पसमाकीर्णम् कोकिलालापसङ्कुलम् प्रससाद पुनर्देवम् सस्मार च महेश्वरम्
कामाग्निपरिवीताङ्गे तपः क्षामेव सा भवत् अभ्यभाषत सा गौरी विजयाम् पार्श्ववर्तिनीम् कामशोकपरीताङ्गे पुरारिविरहाकुला
इममखहरमागतानिशम् स्वयमपि पूजयितुम् तपोभिरीशम् अयमभि नव पल्लव प्रसूनः स्मरयति माम् स्मर बन्धुरेकचूतः कथमिव विरह शिवस्य सख्यः क्षुभित धियात्र भृशम् मनोभवेन तदपि च तरुणेन्दुचूडपादस्मरणमहोंषधम् एकमेव दृष्टम् इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्याम् संहितायाम् प्रथमे माहेश्वरखण्डे अरुणाचलमाहात्म्ये पूर्वार्धे पार्वत्याः शिवनेत्रमीलनेन तमसा क्षुब्धलोकपापभयेन काञ्च्याम् कम्पास्थितैकाम्रतले तपश्चर्यार्थमागमनम् नाम तृतीयोऽध्यायः अथ चतुर्थोऽध्यायः विजया सान्त्वनया पार्वत्या तपः करणम् आकाशवाण्या गौतमऋषेः आश्रमगमनाय प्रेरणम् देव्यास्तत्र गमनम् ब्रह्मोवाच अथाभ्यधत्त विजया प्रणम्य जगदम्बिकाम् सान्त्वयन्ते स्तुतिशतैः उपायैः शिवदर्शनैः देवित्वमविना भूता तदा देवेन शम्भुना प्राणेश्वरी त्वमेकासि शक्तिस्तस्य परात्मनः
तथा मायाम् त्वमात्मीयाम् सन्दर्शयितुमीहसे पृथग्भावमिवेशानः प्रकाशयति न स्वयम् आदेशम् प्रतिगृह्यैव समुपेतासि पार्वती अलङ्घनीया सैवाज्ञा शाम्भवी सर्वदा त्वया विधातव्यम् तपः प्राप्तम् स्थानेऽस्मिन् शिवकल्पिते निवृत्य निखिलानि कामान् शम्भुमाश्रितया त्वया अन्यथापि जगद्रक्षा त्वदधीना जगन्मयि धर्मसंरक्षणम् भूयः शिवेन सहितम् तव
निष्कलम् शिवमत्यन्तम् ध्यायन्त्यात्मन्यवस्थितम् वियोगदुःखम् कश्चित्त्वम् न स्मरिष्यसि पार्वती भक्तानाम् तव मुख्यानाम् तवैवाचारसङ्ग्रहः उपदेशितया लोके प्रयताम् धर्मवत्सले इति तस्य वचः श्रुत्वा गौरी सुस्थिरमानसा तपः कर्तुम् समारेभे कम्पानद्यास्तटे शुभे विमुच्य विविधा भूषा रुद्राक्षगणभूषिता विसृज्य दिव्यम् वसनम् पर्यधाद्वर्कले शुभे
अलकैः सा शिल्प मनयच्च कपर्दताम् अलिम्पत तनुम् सर्वाम् भस्मनामुक्त कुङ्कुमा मृगेषु कृत सन्तोषा शिलोञ्ची कृतवृत्तिषु जजाप नियमोपेत शिव पञ्चाक्षरम् परम् कृत्वा त्रिश्रवणम् स्नानम् कम्पापयसि निर्मले कृत्वा चथैकतम् लिङ्गम् पूजयामास सादरम्
वृक्षप्ररोपणैर्दानैः अशेषातिथिपूजनैः शान्तिम् हरन्ती जीवानाम् देवी धर्ममपादयत। ग्रीष्मे पञ्चाग्निमध्यस्था वर्षा सुस्थण्डिलेशया हेमन्ते जलमध्यस्था शिशिरे चाकरोत्तपः पुण्यात्मनाम् महर्षीणाम् दर्शनार्थमुपेयुषाम् विस्मयम् जनयामास पूजयामास सादरम् कदाचित् स्वयमुच्चित्य वनान्तात् पल्लवान्वितम् पुष्पोत्करम् विशेषेण शोधितम् समुपविशत।
कृत्वा च सैकतम् लिङ्गम् कम्पारोधसि पावने सम्पूजयितुमारेभे न्यासावाहनपूर्वकम् सूर्यमभ्यर्च्य विधिवद्रक्तैः पुष्पैश्च चन्दनैः पञ्चावर्णसंयुक्तम् क्रमादानर्च्य शङ्करम् धूपैर्दीपैश्च नैवेद्यैः भक्तिभावसमन्वितैः अपरोक्षितमीशानम् आलोके पुरोहितम् अथ देवशिवः साक्षात् संशोधयितुमाम्बिकाम् कम्पानद्याः प्रवाहेण महता पर्यवेष्टयत्।
अतिवृद्धम् प्रवाहन्तम् कम्पायाः समुपस्थितम् आलोक्य नयमासीनाम् आहुः सख्यस्तदाम्बिकाम्। उत्तिष्ठ देवि बहुलः प्रवाहोऽयम् विजृम्भते दिशाम् मुखानि सम्पूर्य तरसा प्रापयिष्यति इति तद्वचनम् श्रुत्वा ध्यायन्ती मिलिते क्षणा उन्मील्य वेगमतुलम् नद्यास्तम् समवैक्षता अचिन्तयच्च सा देवी पूजा विघ्नसमाकुला किम् करोमि न शक्नोमि आत्मारब्धमर्चनम् श्रेयःप्राप्तुमभिघ्नेन प्रायः पुण्यात्मना भुवि पठते धर्मसंयोगो मनोरथफलप्रदः सैकतम् लिङ्ग मथुर प्रवाहाल्लयमेष्यति लिङ्गनाशे विमोक्तव्यः सद्भक्तैः प्राणसङ्ग्रहः।
प्रवाहोऽयम् समायाति शिवमायाविनिर्मितः विशोधयितुमात्मानम् भक्तियुक्तम् निजे पदे आलिङ्ग्य सुदृढम् दौर्भ्यामेतल्लिङ्गम् अनाकुलम् अहम् वत्स्यामि याताशु सख्यो यूयम् विदूरतः इत्युक्ता सैकतम् लिङ्गम् गाढमालिङ्ग्य साम्बिका नमुमोच प्रवाहेन वेष्ट्यमानापि वेगतः स्तनचूचुकनिर्मग्नमुद्रादर्शितलाञ्छनम् महालिङ्गम् स्वसंयुक्तम् प्रणनाम तदादरात् निमीलिते क्षणाध्याननिष्ठैकहृदया स्थिता पुलकाञ्चित सर्वाङ्गी सा स्मरन्ति सदाशिवम्।
कम्पस्वेन
परित्राण लज्जाप्रणय केलिदात् क्षणमप्यचलालिङ्गान्नवियोगमपेक्षते।
अथ तामब्रवीत् काति दैवी वागशरीरिणि विमुञ्च बालिके लिङ्गम् प्रवाहोऽयम् गतो महान् त्वयार्चितमिदम् लिङ्गम् सैकतम् स्थिरभैरवम् भविष्यति महाभागे वरदम् सुरपूजितम् तपश्चर्याम् तवालोक्य रचितम् धर्मपालनम् लिङ्गम् चैतन्नमस्कृत्य कृतार्थाः सन्तु मानवाः अहम् वितैजसंरूपमास्थाय वसुधातले वसामि चात्र सिद्ध्यर्थम् अरुणाचलसंज्ञया
ऋणति सर्वलोकेभ्यः परुषम् पापसञ्चयम् ऋणो न विद्यते यस्मिन् दृशे तेनारुणाचलः। ऋषयसिद्धगन्धर्व महात्मानश्च योगिनः मुक्ता कैलासशिखरम् मेरुम् चैनमुपासते मदंशजातयोः पूर्वम् युध्यतो ब्रह्मकृष्णयोः अहम् मोहमुपाकर्तुम् तेजो रूपो व्यवस्थितः ब्रह्मणाहंसरूपेण विष्णुना क्रोढरूपिणा अदृष्टशेखरपदः प्रणतो भक्तियोगतः।
ततः प्रसन्न प्रत्यक्षस्ताभ्याम् वरमभीक्षितम् प्रादाम् जगत्त्रयस्यास्य संरक्षायान्तु कौशलम् प्रार्थितश्च पुनस्ताभ्याम् अरुणाचलसंज्ञया अनैषितैः संरूपम् అహం స్థావరలింగతాం గత్వా పృచ్ఛమహాభాగం మద్భక్తిం గౌతమం మునిం అరుణాచలమాహాత్మ్యం శ్రుత్వా తత్ర తపశ్చరాం అజ్ఞాతత్వతే దర్శయిష్యామి తేజసం రూపమాత్మనః సర్వపాప నివృత్త్యర్థం సర్వలోకహితాయ చ ఇతి వాచం సమాకర్ణ్య నిష్కలాత్ కథితాం శివాత్ తథేతి సా సా దేవి గంతుం సముపచక్రమే.
అథ దేవాన్ ఋషీన్ సర్వాన్ పశ్చాత్ సేవార్థమాగతాన్ అవాదీదం వికారోక్య స్నేహపూర్ణేన చక్షుషా తిష్టతాత్రైవ వైదేవ మునయశ్చ దృఢవృతాః నియమాశ్చాధితిష్ఠంతః కంపారోధసి పావనే. సర్వపాపక్షయకరం సర్వసౌభాగ్యవర్ధనం పూజ్యతాం సైకతమిదం కుచకంకణలాంఛనం అహం చ నిష్కలం రూపం ఆస్థాయై తద్దివానిశం ఆరాధయామి మంత్రేణ శోణేశ్వరం వరప్రదం.
మత్తపశ్చరణాల్లోకే మద్ధర్మ పరిపాలనాత మల్లింగ దర్శనాచైవ సిద్ధంత్వృష్ట విభూతయః సర్వకామ ప్రదానేన కామాక్షేమితి కామతః మాం ప్రణమ్యాత్ర మద్భక్త లభంతాం వాంఛితం వరం. అహం విదేవ దేవస్య శంభో రవ్యాహతో జనః ఆదేశం పాలయిష్యామి గత్వారుణ మహీధరం తత్ర గత్వా తపస్తీవ్రం కృత్వా శంభుం ప్రసాద్య చ మాం తు లబ్ధవరాం యూయం పశ్చాద్ ద్రక్షత సంగతాః. ఇతి సర్వాన్ విసృజ్యాశు సద్భక్తాన్ పాదసేవినః అరుణాద్రిం గతా బాల తపసే శంకరాజ్ఞయా నిత్యాభిసేవితాకారీ సఖీభిరభియోగతః ఆససాదారుణాద్రీశం దివ్యదుందువినాదితమ్.
అంతస్తేజోమయం శాంతం అరుణాచలనాయకం అప్సరో నృత్యగీతైశ్చ పూజితం పుష్పవృష్టిభిః ప్రణమ్య స్థావరం లింగం కౌతూహలా సమన్విత సిద్ధానాం యోగినాం సార్ధం ఋషీణాం చాన్వైక్షత అత్రిర్భృగుర్భరద్వాజః కశ్యపశ్చాంగిరాస్తథ కుత్సశ్చ గౌతమశ్చాన్యే సిద్ధ విద్యాధరామరాః తపః కుర్వంతి సతతం అపేక్షితవరాప్తయే గంగాద్యా సరితశ్చాన్యాః పరితః పర్యుపాసతే.
దివ్యలింగమిదం పూజ్యం అరుణాద్రిరతి స్మృతం వందస్వేతి సురైః ప్రోక్త ప్రణనామ పునః పునః అభ్యర్థితా పునః సర్వైః ఆతిథ్యార్థే మహర్షిభిః శివాజ్ఞయా గౌతమో మే ద్రష్టవ్య ఇతి సా వదత్. అయమత్ర ఋషి భక్తైః నిర్దిష్టం తమథాభ్యగాత సమునిశివ భక్తానాం ప్రథమస్తపసాన్నిధిః.
వనాంతరం గతః ప్రాతః సమిత్కుశఫలాహృతైః అతిథీనాశ్రమం ప్రాప్తానర్చతే చ దృఢవ్రతా శిష్యానాదిశ్య ధర్మాత్మా గతశ్చ విపినాంతరం. అథ సా గౌతమం ద్రష్టుమాగత పర్ణశాలికాం వగతో మునిరిత్యుక్తైరిత ఆయాస్యతి క్షణాత్ శిష్యైరభ్యర్థితేత్యుక్త్వా ఫలమూలైస్తు సుగంధిభిః.
అభ్యుత్నాసనేన పాద్యేనార్ఘ్యేన సూనృతైః వచనైః ఫలమూలేన సార్చితా శిష్య సంపద క్షణం క్షమస్వేచ్చూచస్తామన్యే జగ్ముస్తదాంతికం దేవ్యాం ప్రవిష్టమాత్రాయాం మహర్షేరాశ్రమో మహాన్ అభవత్ కల్పబహులో మణిప్రాసాద సంకులః. వనాంతరాదుపావృత్య సమిత్కుశఫలాహరః అపశ్యత్ స్వాశ్రమం దూరే విమానశతశోభితం కిమేతదితి సాశ్చర్యం చింతయన్ మునిపుంగవః. గౌర్యాః సమాగమం సర్వం అపశ్య జ్ఞానచక్షుషా శీఘ్రం నివర్తమానోసౌ ద్రష్టుం తాం లోకమాతరం శిష్యైః శీఘ్రజలైవ వృత్తమావేది తమథాశృణోత. అథ మహర్షి రూపాగత కౌతుకో నిజతపః ఫలమేవ తదాగమం శివదయాకలితం పరిచింతయన్న భజదాశ్రమమాశ్రిత వత్సలః. ఇది శ్రీస్కాందే మహాపురాణే ಏಕಾಶೀತಿ ಸಹಸ್ರಾಂ ಸಂವಿತಾಯಾಂ ಪ್ರಥಮೇ ಮಾಹೇಶ್ವರ ಖಂಡೇ ಅರುಣಾಚಲ ಮಹಾತ್ಮೇ ಪೂರ್ವಾರ್ಧೇ ಪಾರ್ವತ್ಯಾಹ ಕಂಪಾಯಾಹ ಅರುಣಾಚಲೇ ಗೌತಮಾಶ್ರಮಾಗಮನಂ ನಾಮ ಚತುರ್ಥೋಧ್ಯಾಯಃ